इदानीं वदतु भगिनि. नमस्कारः.
यथोदाहरणं वाक्यानि वदत. उदाहरणं, यद्यपि मरणं निश्चितं तदापि जनाः तत् न चिन्तयन्ति.
मरणं निश्चितमस्ति तथापि जनाः तत् न
चिन्तयन्ति.
तत्र तत् इत्युक्ते किं?
मरणं.
मरणं इति विषये मरणम् अस्ति इति न चिन्तयन्ति. मरणं न चिन्तयन्ति. समीचीनं भगिनि. उदाहरणम् अस्तु. अग्रे गीताञ्जलि भगिनि, नमस्कारः.
नमस्ते महोदय. महोदय क्षम्यतां महोदय.
चिन्ता मास्तु भगिनि, चिन्ता मास्तु.
धन्यवादः. अहं पश्यामि
भगिनि. पेज् 187. अस्तु
अहं चिन्तयामि मरणं न चिन्तयन्ति सम्यक् एव.
सत्यं सत्यं. समीचीनं. ललिता भगिनी नमस्कारः. ललिता भगिनी नमस्कारः. अस्तु अस्तु. सूर्यकुमारी भगिनी अग्रे वदतु.
क्षम्यतां महोदय. भगिनी, मरणं वयं न चिन्तयन्ति इति तु सत्यं, किन्तु तदेव वयं न किमपि चिन्तनमेव कृतवन्तः न. मरणम् इति विषयं चिन्तनं करणीयम् आवश्यकमेव अहम् इति मन्ये.
श्रीकुमारी भगिनी, भवती किं चिन्तयति?
प्रायः म्यूट् मध्ये यः कोऽपि न वदति गच्छन्तु कृपया.
सत्यं सत्यं. श्रीकुमारी भगिनी, भवती किं चिन्तयति? भवती उक्तवती, अतः पृच्छामि तावदेव. यदि
सदा मरणम् एव चिन्ता
तादृश नास्ति, तत्र तादृश इति न उक्तं खलु, किन्तु तद् अस्ति इति, तद् निश्चितम् अस्ति इति तत् मनसि निधाय जीवनं करणीयम् इति
समयं लघु समयम् अस्ति चेत् नित्य सम्यक् कार्यं करोतु.
सर्वं तत् अतः तत्र किं तत्र किं करणीयं, किम् आवश्यकम् इति किञ्चित् मनसि किञ्चित् योजना आगता भवति खलु. तावदेव. तत्र सर्वदा किं प्रातः कालतः रात्रिपर्यन्तम् अस्तु मरणं निश्चितं, मरणं निश्चितम् इति तत् सा परिस्थितिः तु कस्यापि आसीत्. सा एव परिस्थितिः कस्य? तत्र भागवतीम् इति कथायां तत्र परीक्षित महाराजस्य सः एव परिस्थितिः आसीत् खलु. सप्तदिने तस्य मरणम् इति, तदनन्तरं भागवतम् इति जातं सञ्जातम्. अतः तत्र मरणस्य विषये चिन्तनं समीचीनमेव इति. अस्तु. अग्रे वदतु भगिनि. इदानीं तत्र किन्तु अस्माकं विषयः अस्ति यद्यपि तथापि इति.
सः बहु कष्टे अस्ति, न प्रकटयति. सः यद्यपि कष्टे अस्ति तदापि न प्रकटयति.
न प्रकटयति. तत्र कष्टम् अस्ति अथवा कष्टे सः अस्ति इति सः न प्रकटयति. समीचीनं भगिनि. अस्तु. रघुपतिमहोदय नमस्कारः.
नमस्कारः महोदय, क्षम्यतां.
नमस्कारः. चिन्ता मास्तु,
कुत्र वयं स्मः?
पेज् 187, पेज् 187. यद्यपि तथापि. नरेश महोदय नमस्कारः.
नमस्कारः महोदय.
नमस्कारः. अस्तु भगिनि, अग्रे.
तव बहूनि जन्मानि अतीतानि, त्वं न स्मरसि तव
न न यद्यपि यद्यपि
यद्यपि तव बहूनि जन्मानि अतीतानि तदापि
तथापि
त्वं न स्मरसि
अत्र
वदति अर्जुन अर्जुनम्
हा कृष्णः वदति अर्जुनं प्रति वदति अस्तु समीचीनम् अतः तत्र त्वम् इत्युक्ते अर्जुनः इति समीचीनम् अपि तत्र स्मरसि इति द्वितीयभागे स्मरसि इति क्रियापदं प्रथमभागे क्रियापदं किम्
तव बहूनि जन्मानि अतीतानि न क्रियापदं
नास्ति अस्तु यदि क्रियापदं भवति स्थापयति चेत् किं स्थापयति तत्र
अतीतानि सन्ति
हा तव बहूनि जन्मानि अतीतानि सन्ति तत्र अतीतानि जन्मानि अतीतानि बहूनि इति अस्ति तत्र कर्मपदमस्ति वा तत्र
जन्मानि
इति कर्तृपदं वा कर्मपदं वा
कर्मपदम्
हा अस्ति इति अकर्मकक्रियापदं खलु तत्र कर्मपदं नास्ति तत्र जन्मानि इति कर्तृपदं तस्य बहूनि इति विशेषणम् अतीतानि अपि विशेषणम्
जन्मानि
हा कीदृशजन्मानि बहूनि जन्मानि कीदृशजन्मानि अतीतानि जन्मानि अतः बहूनि अतीतानि जन्मानि तव बहूनि अतीतानि जन्मानि सन्ति तथापि त्वं न स्मरसि तानि जन्मानि न स्मरसि इति समीचीनं भगिनि अस्तु
यदि क्रियापदम् अस्ति चेत् तदनन्तरम् आसन् इति
तदपि समीचीनं भगिनि तत्र भूतकाले अस्ति इति कृत्वा आसन् इति समीचीनमेव भगिनि
आसन् स्म इति तु
स्म किमर्थं
नो अस्ति सन्ति स्म
सन्ति स्म
इत्युक्ते
हा तत्र सन्ति अपि
तत्तु सत्यं भगिनि सत्यं
किन्तु अग्रे यत् किन्तु तत्र यत् अग्रे यत् आगच्छति तस्य स्मरणं तु न भवति खलु अतः विषय तत्र जन्मानि अग्रे अपि भवन्ति किन्तु तत्र यानि अतीतानि जन्मानि ते सर्वे भूतकाले एव सन्ति अत्र आसन् इति सम्यक् एव अस्ति आसन् इति भवन्ति इति न भवन्ति इति तु तत्र अतीतानि भवन्ति इति प्रायशः आसन् अथवा आसन् प्रायशः बहु सम्यक् अस्ति
भवति स्म इति भवति खलु महोदय भूतकालरूपं कर्म कर्तुं
किन्तु महोदय तत्र तत्र आसन् स्म इति तत्र कण्टिन्यूस् इति भवति खलु किन्तु तत्र
तद् भूतकालरूपमेव खलु अतः पुनः
किन्तु अस्तु अस्तु तत्र बहुवारं जातम् इति कृत्वा अस्तु सत्यं सत्यं तत्र कण्टिन्यूस् इत्यर्थे एव अस्ति खलु एकजन्मस्य अनन्तरम् अनेक अन्यजन्म भवति इति कृत्वा तदपि वक्तुं शक्नुमः सत्यमेव अस्तु
सन्ति स्म इति तु समीचीनं
सन्ति स्म सन्ति स्म सन्ति स्म अथवा आसन् अपि
भवति स्म न
भवति स्म अपि स्म इति भवन्ति स्म
महोदय तत्र स्म इति सर्वदा वयं वर्तमानक्रियापदस्य अन्ते एव योजयामः खलु भूतकाल न भवति खलु भूतकालात्ते
धन्यवादः महोदय
मम
विना चिन्तनेन विना अहम् उक्तवान् सत्यम् सो अतः आसीत् अथवा आसन् इति नो चेत् आसन् बहुवचनम् इति कृत्वा आसन् नो चेत् सन्ति सन्ति स्म इति अथवा भवन्ति स्म इति हा आसन् स्म इति न क्षम्यतां मम दोषः धन्यवादः महोदय न चिन्तितवान् तत्र सत्यं
ममापि अभ्यासः
धन्य
बहूनि जन्मानि इति प्रथमा विभक्ति वा महोदय
सत्यं महोदय तत्र जन्मानि हा तत्र जन्मानि इति हा तत्र नपुंसकलिङ्गं जन्म इति प्रायशः प्रथमविभक्तिरूपम् अस्ति जन्म इति किन्तु तत् पुल्लिङ्गपदं नास्ति तत्र नपुंसकलिङ्गपदम् अस्ति
महोदय वनं वने वनानि तथैव वा
तादृश तत्र अकारान् जन्मन् इति प्रायशः तत् अकारान्त नास्ति इति तत्र भिन्न भिन्न अन्ते हलन्तपदं नकारान्त एव प्रायशः अस्ति इति मन्ये द्रष्टव्यमस्ति महोदय किन्तु प्रथमविभक्तिरूपं जन्म इति अस्ति किन्तु पुल्लिङ्गपदं नास्ति
बहूनि इति
नपुंसकलिङ्गमेव नपुंसकलिङ्गमेव
विशेषणमस्ति
हा तत्र जन्मानि इति विशेष्यं तस्य विशेषण द्वयमस्ति बहूनि अपि अतीतानि द्वयमपि विशेषण विशेषणं
सत्यं महोदय अग्रिमे करोमि वा
अस्तु अस्तु करोतु महोदय
यद्यपि अन्तः भगवान् अस्ति तथापि वयं न जानीमः
हा समीचीनं महोदय तत्र किं न जानीमः
भगवान् अस्ति इति
भगवान् अस्ति अन्ते अस्ति इति न जानीमः समीचीनं महोदय अग्रे
महोदय तत्र यद्यपि अनन्तरमपि कर्तुं शक्यते वा अन्तः यद्यपि भगवान् अस्ति तथापि वयं न जानीमः यद्यपि कुत्र स्थापनीयं
तत्र
तत्रापि भवति खलु महोदय अन्तः भगवान् यद्यपि अस्ति तथापि वयं
तादृशप्रयोगपि मयापि दृष्टमस्ति किन्तु अत्र किं यद्यपि इति अपि तथापि आरम्भे स्थापयामः इति कृत्वा तत्र अभ्यासार्थम् आरम्भे कुर्मः किन्तु अन्यत्र अपि स्थापयितुं शक्नुमः महोदय सत्यं
महोदय अन्तः रूपं किम्
अन्तः
अव्ययम्
अव्ययम्
अन्तः बहिः इति अव्ययम् अन्ते अन्तः
अन्ते अन्ते इति समीचीनं नास्ति अत्र
अन्तः तत्र तत्र प्रायशः अन्ते
अन्ते अपि भवितुम् अर्हति अहं न जानामि अन्तः इति अव्ययं जानामि अन्तः बहिः इति
तत्र अन्ते अपि अव्ययमेव अस्ति तत्र अन्ते इति सप्तमीभक्तिरूपं नास्ति भगिनि
अत्र समीचीनं नास्ति एव अन्ते भगवान् अस्ति इति समीचीनं नास्ति
न तदपि समीचीनं किन्तु तत्र अन्तः अपि अन्तः अपि अव्ययमस्ति भगिनि अन्ते अपि अव्ययमस्ति
तत्तु सत्यम् अहम्
अतः तत्र अव्ययद्वयमस्ति समानार्थकम् अन्तः अपि अन्ते तत्र अन्ते इति अस्ति इति कृत्वा वयं चिन्तयामः अस्तु तत्र सप्तमीविभक्तिरूपम् इति खलु किन्तु न अव्ययमेव द्वयमपि अव्ययम् अन्तः अथवा अन्ते अस्तु अग्रे महोदय
एषा रात्रिः संयमी जागर्ति यद्यपि एषा रात्रिः रात्रिः तथापि संयमी जागर्ति रात्रि तु निद्रावस्था एव किन्तु संयमी अस्ति अतः जागर्ति
तत्र जागर्ति इति प्रायशः तत्र कोऽपि जानाति वा कीदृशलकार अत्र अस्ति इति केवलं लट् लकारः वा अथवा जागृ इति प्रायशः
सूर्यकुमारी
लोट्
जागर्ति जाग्रति इति अस्ति किन्तु जाग्र लोट् लकारम् इति चिन्तयति वा महोदय
जागृहि इति लोट् लकारं महोदय
जागर्ति
जागर्ति न जाने इदानीं
जाग्र अस्तु 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 हा अत्र अस्तु तद् द्रष्टव्यम् अस्ति अस्तु अग्रे गच्छामः
लट्लकारे अस्ति महोदय
लट्लकारे वा किन्तु धातु
जागृ जागृ धातु अदादिगणे अस्ति जागर्ति जागृतः जाग्रति इति
जाग्र इति
अस्तु
अस्तु अस्तु
जागर्ति जागृतः जाग्रति इति रूपं किञ्चित् भिन्नम् अस्ति जागृतः
समीचीनं हा अस्तु अस्तु अस्तु
जागर्मि जागृवः जागृमः इति अस्ति
अस्तु अस्तु हा समीचीनं समीचीनम् अस्तु अस्तु हा तत्र जागर्ति इति अस्तु तत्र एतद् एकवचनरूपम् अस्ति अपि जागृति इति यत् चिन्तयामः तद् बहुवचनरूपम् अस्ति अस्तु
गुणकार्यं भवति महोदय जागृ जागर्ति
हा तादृश किमपि अस्ति भगिनि अत्र सत्यं हा अर् इति अस्ति खलु तत्र सत्यम् अस्तु अग्रे हा अग्रे गीताञ्जलि भगिनी अग्रे करोति वा
महोदय एकवचनरूप इव अस्ति जागृति इति
हा सत्यं महोदय सत्यं हा सूर्यकुमारी भगिनी प्रश्नः
अदादिगणे अस्ति जागृ जागर्ति
हा सत्यं भगिनि हा जागर्ति जागृतः जागृति इति हा सत्यं भगिनि धन्यवादः गीताञ्जलि भगिनी अग्रे
कृष्णः युद्धनिपुणः कुरुक्षेत्रे शस्त्रं न उत्थापयति यद्यपि कृष्णः युद्धनिपुणः तथापि कुरुक्षेत्रे शस्त्रं न उत्थापयति
सः तु युद्धं न कृतवान् खलु कुरुक्षेत्रे हा इति अस्तु समीचीनं तत्र युद्धनिपुणः इति तत्र रूपं तत्र
युद्ध इति समास इति अहं
किन्तु तत्र निपुणः इति अस्ति चेत् वयं किं कुर्मः तत्र पूर्वस्य पदे कीदृशप्रश्नः भवति तत्र वयं किञ्चित् पूर्वमेव दृष्टवन्तः तत्र सप्तमी विभक्तिरूपं भवति कस्मिन् निपुणः अथवा कस्मिन् विषये निपुणा इति अतः युद्धे निपुणः इति तादृशरूपं भवति भगिनि तावदेव हा अस्तु अग्रे
ज्ञानयोगः श्रेष्ठः कर्म करोतु यद्यपि ज्ञानयोगः श्रेष्ठः तथापि कर्म करोतु
इति ज्ञानम् इति एव चिन्तनेन कर्म कर्मस्य
वयम् इति मन्ये यदि ज्ञानयोग श्रेष्ठ तदनन्तरं ज्ञानविषये एव
चिन्तनं चिन्तनं भवति चेत् तत्र कर्म अपि करणीयम् इति समीचीनं भगिनि धन्यवादः अस्तु अग्रे रघुपतिमहोदय अग्रे करोति वा
शरीरं नश्वरं मोहः न नश्यति यद्यपि शरीरं नश्वरं तथापि मोहः न नश्यति
अग्रे
जनाः पापस्य फलं नेच्छन्ति पापं कुर्वन्ति एव तत् समीचीनं यद्यपि जनाः पापस्य फलं न इच्छन्ति तथापि पापं प्रयत्नेन कुर्वन्ति एव
तत्र प्रयत्नेन अपि अस्ति सत्यं महोदय सुभाषितमस्ति खलु सत्यं
सत्यं
समीचीनं महोदय तत्र मोहः न नश्यति इति तत् अस्तु तत्र किमपि आसीत् वा इति न तत्र व्याकरणविषये किमपि आसीत् वा इति तत्र शरीरं नश्वरं तत्र तत्र किम् अस्ति महोदय तयोः सम्बन्धः
नश्वरं शरीरं नश्वरम् इति शरीरं नश्वरं विशेषणविशेषभावः
नश्वरं
शरीरं
नश्वरं शरीरं हा इति समीचीनं पापस्य फलं न इच्छन्ति
फलं न इच्छन्ति तत्र पापस् अञ्जनाः
अत्र इच्छन्ति क्रियापदम् अपि फलम् इति तत्र कर्मपदं
कर्मपदं जनाः इति कर्तृपदं जनाः न इच्छन्ति
हा जनाः न इच्छन्ति
फलं न इच्छन्ति कस्य पापस्य पापं कुर्वन्ति एव
समीचीनं
जनाः कुर्वन्ति
हा जनाः कुर्वन्ति एव समीचीनं महोदय अस्तु अग्रे नरेश महोदय
कर्मफले इच्छा नास्ति कर्म करोमि यद्यपि कर्मफले इच्छा नास्ति तथापि कर्म करोमि
हा इति तत्र फलेषु तत्र प्रसिद्धश्लोकः अस्ति खलु कोऽपि वदति वा रघुवीरानन्दमहोदय तत्र प्रसिद्धश्लोकः कर्मेषु मा फलेषु का किमस्ति श्लोकः
मा कर्म फल हेतुर्भूः मा त्वे सङ्गोस्त्व कर्मणि तत् तृतीय चतुर्थपादम् अस्ति
अस्तु
कर्म एवाधिकारस्ते मा फलेषु वचन मा कर्म फल हेतुर्भूः माते सङ्गोस्त्व कर्मणि
धन्यवादः महोदय हा अस्तु हा अस्तु सः एव अत्र अर्थः समीचीनं हा अस्तु नरेश महोदय अग्रे
मनः तत्त्वम् इच्छति तत् ज्ञानं न भवति ज्ञातं न भवति यद्यपि मनः तत्त्वम् इच्छति तथापि तत् ज्ञातं न भवति
हा तत् ज्ञातं न भवति इति तत्र तत् ज्ञातम् इति तत्र न भवति तत् ज्ञातं न भवति हा तत्र ज्ञातम् इति पदस्य विभक्ति का तत्र
द्वितीय
न भवति
भवति भवति इति अकर्मकः अस्ति महोदय
अकर्मकः अस्ति अतः ज्ञातम् इति तान्तरूपम् अस्ति वा ज्ञातः ज्ञातम्
हा यद् यत् यस्य ज्ञानं भवति तद् ज्ञातम्
ज्ञातं ज्ञातं भवति
तत् ज्ञातं न भवति हा तत्र तत्त्वम् इच्छति यद्यपि मनः तत्त्वम् इच्छति तथापि तत्र तत् ज्ञातं न भवति इत्युक्ते तत्त्वं न ज्ञातं भवति इत्युक्ते तत्त्वस्य ज्ञानं मनसि न भवति इति हा तत्त्वम् इच्छति मनः तत्त्वम् इच्छति किन्तु तत्त्वस्य ज्ञानं न भवति अथवा तत्त्वं ज्ञातं न भवति इति
तथैव भवति महिच्छति परन्तु सम्यक्
अस्तु सत्यं महोदय हा सत्यं तत्र पाणिनेः सूत्राणि तादृश एव क्लिष्टानि हा बहु क्लिष्टानि हा सत्यं
जटिलविषयः
हा जटिलविषयः अस्ति हा सुन्दरमस्ति किन्तु जटिलमेव अस्ति सत्यं किन्तु प्रयत्नम् आवश्यकम् अतः प्रयासं कुर्वन् स्मः वयं सर्वं तावदेव अस्तु तत्र हा अस्तु अग्रे अन्य कोऽपि अस्ति वा हा
महोदय अत्र युगलम् अभ्यास कुर्मः वयं यद्यपि तथापि इति यदि अपि तथा तत् युगलं नास्ति न यदि तदा
हा 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 तत्र सत्यं सत्यं तत्र यथा तथा इति अस्ति अथवा यदि तर्हि इति अस्ति हा तत्र यदि तर्हि मध्ये किं तत्र यदि तर्हि तत्र अकारणम् अपि कार्यम् इति तादृशरूपम् अस्ति खलु यदि एतद् भवति तर्हि अन्यद् भवति प्रथमं यदि कारणम् अस्ति तर्हि कार्यं भवति इति खलु अत्र किमस्ति तत्र तस्य विरुद्धरूपम् अस्ति
किन्तु द्वयोः यद्यपि तथापि यद्य इति
तत्र यद्यपि तत्र यदि योगः अपि
यदि अपि
अपि तथा तथा योगः अपि सत्यं सत्यं तत्र अपि अपि निष्कासयामश्चेत् तत्र यदि तथा तत्र तत्र युगलं तत्र सम्बद्धपदम् इति न वक्तुं तादृशस्थितिः तादृशी स्थितिः नास्ति सत्यं भगिनि हा सत्यं भगिनि हा समीचीनं हा अत्र अपि इति उपयोग तस्य योजनेन एव तत्र सम्बन्धः भवति तत्र सत्यं 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 भगिनि हा अतः तत्र किञ्चित् वैलक्षण्यम् अस्ति तत्र विशेष किञ्चित् विशेषस्वरूपं विशेषं स्वरूपम् अस्ति अत्र सत्यम् अस्तु अग्रे अन्य कोऽपि अस्ति वा श्रीनिवास महोदय वा नमस्कारः महोदय प्रथमवारं वा अस्तु स्वागतं महोदय भवान् जानाति वा कुत्र स्मः इति गीतासोपाने पेज् 187-188 मध्ये स्मः हा यदि वक्तुम् इच्छति चेत् वदतु महोदय तत्र अभ्यासं यदि कुर्मः कुर्वन् स्मः तस्मिन् सन्दर्भे यदि वक्तुम् इच्छति चेत् वदतु अहमपि करोमि इति
नम्बर् 10
इदानीं तत्र यदि तर्हि इति तत् हा नम्बर् 10 कृतवन्तः इदानीं पेज् 188 इति तत्र भवान् पठति वा अग्रे यदि तर्हि विषये
यदि तर्हि यदि भवान् योगासनं करोति तर्हि शरीरं दृढं भवति
हा अग्रे
यदि ज्वरः अस्ति तर्हि वैद्यं पश्यतु
हा अतः तत्र यदि तर्हि तत्र कीदृशपदम् इत्युक्ते द्वयमपि अव्ययम् अपि तयोः मध्ये नित्यसम्बन्धः अस्ति अतः तत्र पूर्वस्मिन् पुटे एतदेव आसीत् तत्र एतानि नित्यसम्बन्धानि अव्ययानि इति अतः यदि आसीत् आगच्छति चेत् तर्हि अपि भवति अपि तत्र वाक्यद्वयमस्ति तत्र ज्वरः अस्ति वैद्यं पश्यतु तत्र ज्वरः अस्ति इति कारणं भवति वैद्यं पश्यतु इति अतः किं करणीयम् इति कार्यं भवति हा तत्र अस्तु अग्रे पठतु महोदय तत्र यदि
यदि विद्युत् अस्ति तर्हि दीपः ज्वलति
हा अस्तु तत्र प्रायशः अत्र कोऽपि क्लेशः नास्ति इति मन्ये अस्तु अतः पूर्णं पठतु महोदय ललिता भगिनी नमस्कारः तत्र न श्रूयते भगिनी किन्तु हा एकवारं तत्र प्रतिध्वनिः अस्ति हा अस्तु श्रीनिवास महोदय वदतु पठतु महोदय अग्रे
यदि अध्ययनं करोति तर्हि मनः सुदृढं भवति यदि जिज्ञासा अस्ति तर्हि गीतां सुखेन अवगच्छति
हा अस्तु तत्र तत्र अध्ययनं करोति हा तत्र अध्ययनं करोति तत्र करोति इति क्रियापदं तत्र कर्तृपदं किमस्ति महोदय
यदि
अध्ययनं करोति तर्हि मनः सुदृढं भवति करोति इति क्रियापदं कर्तृपदं
ध्वनिः आगच्छति
हा ध्वनिः आगच्छति एकनिमिषः
पश्यामः
इदानीं गतम् इति हा अस्तु समीचीनम् अस्तु हा वदतु महोदय न दत्तं न दत्तं महोदय न दत्तं तत्र अध्ययनम् इति कर्मपदम् अस्ति हा तत्र तत्र यदि भवान् भवति सः किमपि तत्र स्थापितुं शक्नुमः हा तत्र अध्ययनं यदि करोति तर्हि मनः सुदृढं भवति हा समीचीनम् अपि तत्र तत्र जिज्ञासा, यदि जिज्ञासा अस्ति तर्हि गीतां सुखेन अवगच्छति, तत्र कर्तृपदं किम्? जिज्ञासा अस्ति तत्र जिज्ञासा कर्तृपदं, हा समीचीनम्। अग्रे तदनन्तरं तर्हि गीतां सुखेन अवगच्छति, अवगच्छति, अवगच्छति इति क्रियापदं, तत्र कर्तृपदं किं, कर्मपदम् अस्ति वा अत्र?
कर्मपदं
तत्र गीताम् इति कस्मिन्, कस्यां विभक्त्याम् अस्ति? द्वितीयविभक्ति कर्मपदम् अस्ति, हा सत्यं महोदय, हा तत् अत्र अपि कर्तृपदं न दत्तं, यथा अध्ययनं करोति।
अत्र भवति महोदय, यदि भवतः जिज्ञासा अस्ति तदे,
अथवा
यदि तव जिज्ञासा अस्ति तर्हि,
हा सत्यं, हा तत्र किन्तु, हा किन्तु अवगच्छति इति अस्ति महोदय, अवगच्छति इति अस्ति, अतः प्रायशः तव इति न भवति,
खलु? यदि भवतः जिज्ञासा अस्ति,
भवतः अथवा तस्य जिज्ञासा अस्ति, हा इति
तव न भवति,
तव न भवति, अवगच्छति, हा सत्यं महोदय, अतः प्रथमपुरुषरूपमेव स्वीकरणीयम् अत्र,
प्रथमपुरुष।
अस्तु अन्तिमं महोदय, श्रीनिवास महोदय धन्यवादः, अन्तिममपि करोतु।
यदि यदि इन्द्रियनिग्रहं करोषि तर्हि मनोनिग्रहं सरलः,
मनोनिग्रहः सरलः,
मनोनिग्रहः
सरलः, हा तत्र करोषि इति अस्ति क्रियापदम्, अतः तत्र कर्तृपदम् अस्ति त्वम् इति, खलु? त्वं करोषि, भवसि, हा मनोनिग्रह, किमर्थं भवसि, नेलन भवसि इति नाम न महोदय, तत्र न न तत्र यदि यदि त्वम् इन्द्रियनिग्रहः करोषि तर्हि मनोनिग्रहः सरलः, तत्र मनोनिग्रहः सरलः, तत्र विशेषणविशेष्यभावः, अतः मनोनिग्रहः सरलः भवति, तत्र कर्तृपदं मनोनिग्रहः एव भवति तस्मिन्
भागे,
मनोनिग्रहः सरलः भवति इति।
अपि च महोदय, तव मनोनिग्रहः सरलः,
तत्र तव इति वक्तुं शक्नुमः, सत्यं भगिनि, हा अत्र यदि त्वम् इति स्थापयामः तत्र तव, तव इति समीचीनं भगिनि, समीचीनं, हा धन्यवादः, श्रीनिवासमहोदय धन्यवादः। अस्तु, हा अस्तु, अग्रे सूर्यकुमारी भगिनी पठति वा, तत्र अभ्यासं करोति वा? सूर्यकुमारी भगिनी, अस्तु अस्तु, रघुवीरानन्द महोदय यदि तर्हि इति प्रथम अभ्यासः।
आं महोदय,
उदाहरणार्थं, अस्तु भगिनि, रघुवीरानन्द महोदय अनन्तरं करोतु भगिनि।
यदि बुभुक्षा अस्ति तर्हि भवान् खादतु, उदाहरणार्थं महोदय, यदि पिपासा अस्ति तर्हि भवान् पिबतु,
हा समीचीनम्, अस्तु, हा अग्रे
अग्रिमे अपि वा, यदि ज्ञानम् आवश्यकं तर्हि भवान् अध्ययनं करोतु,
हा समीचीनं महोदय, हा तत्र, हा अथवा संस्कृतं पठतु, व्याकरणं पठतु, मीमांसं पठतु, शास्त्रं पठतु, अस्तु
समीचीनं करोतु,
करोतु समीचीनं, सत्यं महोदय, हा सत्यं, समीचीनं महोदय, अस्तु सूर्यकुमारी भगिनी अग्रे।
यदि मित्रम् आगच्छति तर्हि मिलतु, मित्रं
मित्रेण मिलतु, मित्रेण मित्रेण सह मिलतु इति, हा समीचीनं भगिनि, हा अथवा तम् आह्वयत, तं तस्य स्वागतं करोतु इति, हा तदपि, हा अस्तु समीचीनं भगिनि, हा अग्रे।
यदि दुःखम् अस्ति तर्हि
आ,
सुखम् अस्ति
न न यदि दुःखम् अस्ति तर्हि किं किमपि करोतु तत्र किं सङ्गीतं शृणोतु यदि दुःखम् अस्ति तत्र किं करणीयं दुःखम् अस्ति चेत्
रोदनं करोतु
स्वीकरोतु
अस्तु 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 हा अस्तु अस्तु समीचीनं
किमपि आशा न दत्ता किमपि
अस्तु अस्तु अतः एव तत्र नूतन वाक्यानि आगतानि अत्र
अहमिति वदामि महोदय
सत्यं सत्यं भवति सत्यं हा
हा यदि दुःखम् अस्ति तर्हि गगनं पश्यतु
हा समीचीनं भगिनि हा अथवा वनं अथवा उद्यानं गत्वा हा
वनं गच्छतु
वनं गत्वा तत्र एकघण्टा यावत् किञ्चित् तत्र प्रकृतिं पश्यतु
योगाभ्यासं करोतु
हा योगाभ्यासं करोतु समीचीनं किन्तु रोदतु अपि स्वीकरोतु तदपि समीचीनमेव अस्ति हा क्लिष्टः अस्ति किन्तु समीचीन अस्तु समीचीनम् अस्तु अग्रे
महोदय अत्र अस्मिन् देशे गोलिका खादतु
तदपि अस्ति तदपि अस्ति हा सत्यं सत्यं हा दुःखं नास्ति चेदपि खादतु
अपि खादतु महोदय गुलिका खादतु
हा इति अस्ति सत्यं सत्यं भगिनि हा अस्तु भगिनि भवती एव अग्रे करोतु
यदि अन्धकारः अस्ति तर्हि
बहिः न गच्छतु अस्तु भगिनि समीचीनम् अस्तु धन्यवादः अस्तु अस्तु अग्रे गीताञ्जलि भगिनि
आं महोदय यदि कष्टम् आपतति तर्हि उत्साहेन किमपि उपायं
चिन्तयतु
चिन्तयतु
अस्तु
अपि च हौ टु सर्च् कथं महोदय
अन्वेषणम् उपायम् उपायस्य अन्वेषणम् अन्वेषणं करोतु हा रघुपतिमहोदय भवान् किं चिन्तयति
न न कष्टम् आपतति तर्हि स्थैर्यं मा
स्थैर्यं स्थैर्यः भव अथवा स्थैर्या भव इति प्रायश
स्थैर्यं
निधाय तत्र स्थैर्यं निधाय
कार्यं करोतु
स्थैर्यं निधाय
स्थैर्येण कार्यं करोतु अथवा धैर्येण
तत्र किं मुखं तत्र मुखदृष्टं तत्र कष्टम् आगच्छति चेत् तत्र धैर्येण तस्य युद्धस्य तत्र किं महोदय फेस् टु फेस् इति तत्र
फेस्
तत्र तादृश अभिमुखं तस्य कष्टस्य
अभिमुखीकरोतु
हा धैर्येण अभिमुखीकरोतु इति तदपि तादृशं रूपमपि वक्तुं शक्नुमः इति मन्ये अस्तु
महोदय निधाय इति किं
निधाय इत्युक्ते तत्र मनसि स्थापयित्वा इति
निधाय करोतु अपि
मनसि निधाय एतत् करोतु तत्र मनसि निधाय तस्य तत्र धैर्य तत्र कष्टस्य तादृशरूपं वा मनसि इदं न आगच्छति महोदय तत्र फेस् तत्र फेस् करोतु इति अर्थे तत्र किमपि वक्तुं शक्नुमः तत्र धैर्येण तत्र तस्य मनोधैर्येण कष्टं निवारयतु इति तादृशं रूपम् अस्ति. अस्तु, किन्तु इदानीं न स्मरामि. अस्तु, गीतञ्जलि भगिनी अग्रे.
यदि उत्सवः अस्ति तर्हि सर्वे मिलतु न
सर्वैः मित्रैः मिलतु इति अथवा
सर्वैः मित्रैः मिलतु सर्वैः मिलित्वा आनन्दं करोतु.
सर्वैः मिलित्वा आनन्दं अनुभवतु. आनन्दं करोतु न आनन्दम् अनुभवतु इति प्राश सुखम् अनुभवतु इति.
सदैव तृतीयविभक्ति स्वीकरोति अत्र महोदय.
तत्र मिलति इति तत्र तादृशरूपम् अस्ति मित्रैः, तत्र अकर्मक क्रियापदम् अस्ति भगिनि अत्र, अतः मित्रैः सह मिलामि इति अकर्मकः अस्ति. अत्र मित्रं मिलामि इति न मित्रेण सह मिलामि इति. अतः अस्तु अग्रे नरेश महोदय.
यदि दीनं पश्यामि तर्हि भवान् साहाय्यं करोतु.
न न, किन्तु दीनं भवान् पश्यति. यदि यदि दीनम् अहं पश्यामि, अतः
दीनं पश्यामि अहं साहाय्यं
तर्हि
अहं साहाय्यं करोमि
इति. समीचीनं महोदय, समीचीनं. अग्रे
यदि आरोग्यम् आवश्यकं तर्हि योगासनं करोतु.
समीचीनं महोदय,
इदानीन्तनकाले
अस्तु तदपि अस्ति. गृहे एव तिष्ठतु, सत्यमेव. कोरोना वैरस् समये विश्वे एतद् एषा एव परिस्थितिः, सर्वे गृहे एव तिष्ठन्ति, किं कर्तुं शक्नुमः.
तर्हि मितभोजनम् आवश्यकम्.
सत्यं सत्यं. अस्तु, इदानीं तत्र एतावत् कीदृश अभ्यासः आसीत् तत्र यदि तर्हि इति, यदि इति भागः भागं दत्तम् आसीत्, तर्हि इति भागं पूरितवन्तः. इदानीं तत्र यदि तर्हि इति स्थापनीयम् अस्ति इति तावदेव तत्र. अस्तु, तत्र किञ्चिदेव अस्ति. तत्र अहं चिन्तयामि तत्र एतत् कृत्वा तत्र यावत् तावत् अपि चेत् नो चेत् इति विषयः अस्ति. तद् प्रायशः अस्तु, तदपि अद्य समापयितुं शक्नुमः इति मन्ये. अतः अग्रिमे वर्गे तत्र सप्तविभक्तयः इति अन्तिमा कथा अस्मिन् गीतासोपाने तत् पठितुं शक्नुमः इति मन्ये. अस्तु, तर्हि अग्रे तत्र श्रीनिवास महोदय अग्रे पठति वा, द्वितीय अभ्यासम् आरम्भं करोति वा.
महोदय, यदोदाहरणं रिक्तस्थानानि प्रेरितम्. उदाहरणं विद्युत् अस्ति अथवा दीपः ज्वलति. यदि विद्युत् अस्ति तर्हि दीपः ज्वलति.
तत्र सम्बन्धः अस्ति खलु, तत्र विद्युत् अस्ति अपि दीपः ज्वलति, तयोः वाक्ययोः मध्ये कश्चन सम्बन्धः अस्ति. तादृशसम्बन्ध यदि तर्हि प्रदर्शयति.
स्नानं न करोति शरीरं मलिनं भवति. यदि स्नानं न करोति तर्हि शरीरं मलिनं भवति.
समीचीनं महोदय. अग्रे
कार्यालयस्य विरामः अस्ति, चलचित्रं पश्यामि. यदि कार्यालयस्य विरामः अस्ति तर्हि
चलचित्रं पश्यामि. समीचीनं महोदय. अस्तु, तत्र ललिता भगिनी वक्तुम् इच्छति वा अत्र. ललिता भगिनी न श्रूयते. अस्तु अस्तु अग्रे सूर्यकुमारी भगिनी अग्रे ललिता भगिनी न श्रूयत भगिनी केवलं ध्वनि श्रूयते किन्तु हा किन्तु तत्र अस्तु अस्तु
भारतदेशे शुभोदयं
हा सत्यं सत्यं हा सूर्यकुमारी भगिनी अग्रे पठतु भगिनी
यदि आत्मविश्वासः अस्ति सर्वसुकर भवति
सर्वं सुकरं
यदि आत्मविश्वासः अस्ति तर्हि सर्वं सुकरं भवति
हा यदि आत्मविश्वासः अस्ति तर्हि सर्वं सुकरं भवति हा सर्वं सम्यक्तया
कार्यं
भवति सर्वाणि कार्याणि सम्यक्तया भवन्ति इति समीचीनं भगिनि हा अग्रे
सर्वे सत्कार्यं कुर्वन्ति देशस्य उन्नतिः भवति यदि सर्वे सत्कार्यं कुर्वन्ति तर्हि देशस्य उन्नतिः भवति
हा देशस्य उन्नतिः भवति समीचीनं तत्र मम पुस्तके तत्र अस्मिन् अभ्यासे प्रथमबिन्दु अस्ति किन्तु द्वितीयबिन्दु नास्ति तादृश एव अस्ति वा हा अस्तु तत्र एकस्य अनन्तरं तृतीय प्रथम एकम् अस्ति तदनन्तरं द्वितीयं नास्ति अत्र अस्तु
अत्र सर्वं सुकरं भवति इति तत्र सुकरम् इति अव्ययं वा विभक्तिका महोदय एकवचनं वा खलु सारि प्रथमविभक्ति खलु
प्रथमविभक्तिरूपमेव हा हा तत्र नपुंसकलिङ्गे अस्ति इति
लिङ्गत्रयेषु भवति वा सुकरः इति भवति वा
हा प्रायशः अस्ति इति मन्ये महोदय अस्ति इति मन्ये तत्र विशेषणरूपेण स्वीकर्तुं शक्नुमः इति मन्ये तत्र तत्र प्रयासः सुकरः इति तादृश भवति इति मन्ये खलु
आमामाम्
अतः तत्र
सर्वं सुकरम्
हा अतः तत्र एतत् तत्र नपुंसकलिङ्गे लिङ्गरूपं स्वीकृतमस्ति तावदेव तत्र विशेषणम् इति भवति इति कृत्वा अत्र अत्र किमपि तत्र अन्यत् किमपि पदं नास्ति खलु महोदय अतः तत्र सर्वं सुखं भवतु अथवा तादृश अतः तत्र यदि तत्र प्रश्नस्य विषये अपि यदि न जानीमः उत्तरस्य लिङ्गं तत्र किम् इति तत् किं डिफाल्ट् इति भवति अतः तत्र डिफाल्ट् स्वीकृतम् इति मन्ये हा तावदेव गीताञ्जलि भगिनी प्रश्नः आसीत्
महोदय अत्र अहम् इति मन्ये उदाहरणं प्रथमबिन्दु स्नानं न करोति इति एव द्वितीय
ओ अस्तु 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 किन्तु उदाहरणस्य संख्या एव नासीत् पूर्वं किन्तु किन्तु किञ्चित् वैचित्र्यम् अस्ति तत्र
सर्वाणि उदाहरणानि एव अचिन्तय संख्या अस्ति अतः सर्व अन्य सर्वाणि अन्यानि सर्वाणि उदाहरणानि एव
अस्तु अग्रे रघुवीरानन्दमहोदय
महोदय सर्वे सत्कार्यं वा महोदय
तस्य अनन्तरं मूल्यं न्यूनम्
क्रीणामि
यदि मूल्यं न्यूनं
यदि मूल्यं न्यूनम् अस्ति तर्हि फलानि क्रीणामि
हा फलानि क्रीणामि समीचीनं महोदय अग्रे
महोदय तत्र चेत् इति अध्याहारं वा यदि मूल्यं न्यूनम् अस्ति चेत् तर्हि
न न न तत्र महोदय तत्र नियमः किं तत्र यदि अपि चेत् समानार्थकपदपदम्
आमाम्
अतः युगपत् न प्रयोगः भवति अतः रूपं कीदृशं भवति तत्र अहमपि आरम्भ तत्र आरम्भे एतादृश वाक्यम् उक्तवान् किन्तु तदनन्तरं ज्ञातवान् तत्र यदि इति इत्युक्ते चेत् अतः तत्र रूपं यदि मूल्यं न्यूनम् अस्ति तर्हि अथवा मूल्यं न्यूनम् अस्ति चेत् फलानि तर्हि फलानि
एकमेव पदं
एकमेव तत्र यदि इति अर्थः चेत् इति किन्तु चेत् अग्रे आगच्छति अग्रिमे पुटे अतः इदानीं मास्तु
अस्तु महोदय अस्तु महोदय विपणीं गच्छति अहमपि आगच्छामि पुनरेकवारं वदामि विपणीं गच्छति अहमपि आगच्छामि यदि न यदि भवती विपणीं गच्छति तर्हि अहमपि आगच्छामि
समीचीनं महोदय अन्तिमं
भवान् न पठति परीक्षा न भवति यदि भवान् न पठति तर्हि परीक्षायाम् उत्तीर्णः न भवति
समीचीनं महोदय अत्र भवति इति क्रियापदं तत्र कर्तृपदं किम् भवान् इति न दत्तं किन्तु भवान् इति कर्तृपदम् अपि तत्र अन्यत् पदमपि कर्तृपदम् अस्ति तत्र
किं महोदय
उत्तीर्णः विशेषणम् अस्ति भवान् उत्तीर्णः कीदृश भवान् उत्तीर्णः
भवती न पठति तर्हि
सत्यं महोदय स्त्रीलिङ्गरूपं स्वीकरणीयं सत्यं महोदय अतः तत्र तद् उपयुज्य वयं जानीमः तत्र भवान् अथवा भवति इति तत्र उत्तीर्णः तत्र अपि कर्तृपदम् अस्ति इति समीचीनं अस्तु अग्रे एकः
प्रश्नः महोदय विपणिम् इति लिङ्गं किं महोदय
विपणिम् इति नपुंसकलिङ्गपदं प्रायशः अस्ति अथवा ओ विपणिः इति वा ओ विपणिः विपणिः इति विपणिः
इत्युक्ते पुंलिङ्ग महोदय
इति विपणिम् न तत्र विपणि पुल्लिङ्ग पुल्लिङ्ग विपणि इति हरि कविशब्दवत् विपणि पुल्लिङ्गपदं विपणिः अस्तु समीचीनम् अस्तु तत्र इदानीं तत्र यावत् तावत् इति अस्ति तदनन्तरं चेत् नो चेत् इति अस्ति तावदेव अद्य सर्वं अव्ययमयवर्गः अद्य अतः समयः न व्ययः अस्तु रघुपतिमहोदय अग्रिमम् आरम्भं करोति वा तत्र यावत् तावत्
अन्यानि अपि कानिचित् अव्ययानि यावत् तावत् उच्चैः पठत नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति यावत् अस्तु कर्णाटकं यावत् विशालं केरलं तावत् विशालं नास्ति विशालम् अस्ति तावत्
तत्र अस्ति इति वक्तव्यं किन्तु नास्ति चेदपि चिन्ता
समीचीनमेव
समीचीनम्
एषा यावत् कार्यं करोति तावत् अन्या न करोति ओलनम् इति अत्र
तत्र यावत् इति तत्र कीदृशभावरूपः वा अथवा केवलं तत्र विस्तारस्य
तुलना एव
तत्र सम्यक्तया कार्यं करोति इति तादृशविषयः नास्ति किन्तु अनेकानि कार्याणि करोति इति तादृशः।
महोदय एकः प्रश्नः, संस्कृतभाषायां महोदय पदक्रमप्रधान नास्ति सत्यं न, किन्तु अत्र यदि वयं किमपि पदं पदक्रम
अत्र भगिनि तत्र सत्यं तत्र पदक्रमस्य महत्व पदक्रमस्य महत्वं नास्ति इति उच्यन्ते सत्यमेव, किन्तु लघुवाक्येषु तादृशपरिस्थितिः अस्ति। तत्र तत्र महत्वं नास्ति इत्युक्ते तत्र किं वृक्षं पश्यामि अहं तदपि अथवा अहं वृक्षं पश्यामि समानार्थक वाक्यं खलु, किन्तु यदि तत्र वाक्यद्वयम् अथवा वाक्यत्रयम् अस्ति अपि तयोः मध्ये सम्बन्धः अपि अस्ति तत्र क्रमः अनुसरणीयम् अस्ति खलु, नो चेत् तत्र क्लेशः भवति। अथवा यदि
बहु किमपि क्लेशम् अव्यये एस्पेशलि अव्यये 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 शब्दे तत् क्लेशः भवति खलु अव्यये।
तत्र वयं दृष्टवन्तः खलु भगिनि तत्र एव इति पदे इति पदस्य उदाहरणं स्वीकुर्मः, तत्र रामः किं विपणिं गच्छति, तत्र इदानीम् एव इति स्थापयामः तत्र कुत्र स्थापयामः, रामः एव विपणिं गच्छति अपि रामः विपणिम् एव गच्छति अथवा रामः विपणिं गच्छति एव
अत्र
अर्थभिन्न अस्ति भगिनि। अतः तत्र साधारणतया तत्र सत्यमेव तत्र पदं तत्र परिवर्तनं कर्तुं शक्नुमः तत्र क्रमः, किन्तु तादृशी परिस्थितिः तत्र किं पद्येषु श्लोकेषु भवति, अतः तत्र अन्वयक्रमः सर्वं किमपि अस्ति, किन्तु तत्र कार्यं सुलभं नास्ति खलु। हा अतः तत्र अत्र किं चिन्तितम् इत्युक्ते आशयः अत्र कः इत्युक्ते तत्र एतादृशस्थापनेन एतादृशं कुर्मश्चेत् अर्थबोधः सुलभः भवति इति।
महोदय अत्र यत्र विभक्ति अस्ति तत्र किमपि क्लेशः नास्ति, नास्ति
तत्र
समीचीनं भवति तत्र अतः एतदेव भवति इति अस्ति कारकविभक्ति अस्ति अथवा उपपदविभक्ति
महोदय तत्रापि सत्यमेव, किन्तु तत्रापि क्लेशः भवितुम् अर्हति, किन्तु यावत् क्लेशः अव्ययपदेन भवति तावत् क्लेशः तत्र नास्ति सत्यं। सत्यं महोदय तत्र कर्मपदस्य विशेषणम् अपि कर्तृपदस्य विशेषणं द्वयमपि षष्टिविभक्ते विभक्त्यन्तं पदं सन्ति चेत् तत्र तत्र कर्तृपदस्य इति क्षम्यतां तत्र विशेषणं न, किन्तु तत्र किं रामस्य मित्रं श्यामस्य गृहं गच्छति इति तत्र तादृशपरिस्थितिः अस्ति चेत् किञ्चित् क्लेशः भवति, किन्तु अव्ययेन क्लेशः बहु किमपि भवति। सत्यं महोदय अत्र यावत् तावत् इति एकम् अव्ययं न अव्ययद्वयम् अस्ति, अतः सावधानतया स्थापनीयं वाक्ये। तत्र यथा रघुपति महोदयेन उक्तं तत्र किं विभक्ति दृष्ट्वा विभक्तिं दृष्ट्वा तत्र अग्रे एतत् सर्वम् आयाति, तत्र वाक्यरचने क्रमः कः इत्युक्ते प्रथमतया क्रियापदं किम् इति ज्ञातव्यं, तदनन्तरं कर्तृपदं किम् इति ज्ञातव्यं, तत् प्रथमाविभक्ति अन्तं पदं भवति, तदनन्तरं प्रत्येकपदस्य विभक्तिं दृष्ट्वा तस्य सम्बन्धः क्रियापदस्य सम्बन्धः तयोः मध्ये कः सम्बन्धः इति दृष्ट्वा तत्र वाक्यरचनं भवति. अतः तत्र सम्बन्धं दृष्ट्वा वयं जानीमः अस्तु अर्थबोधः भवति इति कृत्वा तत्र तृतीयान्त विभक्त्यान्तपदम् अस्ति अथवा चतुर्थी विभक्त्यन्तपदम् अस्ति किमपि अस्ति चेदपि तद् अन्यस्मिन् स्थाने स्थापयामश्चेदपि क्लेशः प्रायशः न भवति इति भवति. किन्तु अत्र तादृशी परिस्थितिः नास्ति. अस्तु रघुपतिमहोदय अग्रे.
आम् महोदय. भीमस्य यावत् धैर्यमस्ति तावत् अन्येषां नास्ति.
तत् सर्वदा तत्र तुलना तत्र
तुलना एव.
तत्र कथम् अथवा कति अथवा कति अपि नास्ति तत्र कियत् इति तादृश तुलना एव अस्ति अत्र.
कियत् संख्यावाचक नास्ति.
कियत् इति तत्र कियत् इति.
मम भगिनी यावत् पठति तावत् अहं न पठामि. तत्रापि तुलना यावत् युद्धं न करोषि तावत् राज्यं न प्राप्नोषि. अत्र भिन्न अर्थः अस्ति
इदानीं. एतावत् किम् आसीत् कियत् इति अर्थे आसीत्. कियत् इति तत्र तुलना अपि तत्र कार्यस्य तुलना अथवा धैर्यस्य तुलना आसीत्. इदानीं किम् अस्ति तत्र समयस्य विषयः इदानीं खलु. यावत् युद्धं न करोषि तावत् राज्यं न प्राप्नोषि. इदानीं समयस्य प्रथमघटना न भवति तावत् द्वितीयघटना न भवति इति.
यावत् आत्मज्ञानं न भवति तावत् मोक्षः न भवति. यावत् तपः न आचरति तावत् शान्तिः न लभ्यते. तत्रापि तदेव अर्थः अस्ति. यावत् विश्वरूपं न पश्यति तावत् अर्जुनः न विश्वसिति.
अतः गीताञ्जलि भगिनी अत्र सम्यक्तया प्रदर्शितम् अस्ति इति मन्ये खलु. अत्र तत्र यावत् तावत् इति पदस्य महत्वं पदस्थानस्य महत्वम् अस्ति इति. तत्र यावत् तावत् मध्ये अस्ति चेत् तत्र कियत् इति तत्र तुलनाविषये भवति. अपि यावत् तावत् वाक्यस्य आरम्भे अस्ति चेत् तत्र क्रिया प्रथमक्रिया अपि द्वितीयक्रिया तत्र प्रथम विना प्रथमक्रियायाः विना द्वितीया क्रिया न भवति इति.
अवधेयम् यावत् तावत् इत्येतत् युगलम् अवधिं सूचयति. अत्र युगलम् अवधिम् इत्युक्ते दैर्घ्यं इति दीर्घत्वम् अथवा काल द्वयमपि सूचयति. यावत् इत्यस्य प्रयोगः कृतः चेत् तावत् इत्यपि प्रयोक्तव्यम् एव. यावत् तावत् उपयोगं कृतं चेत् तावत् आगच्छति एव.
आगच्छति एव तत्र तत्र. अतः यदि तर्हि यथा तथा यद्यपि तथापि अपि इदानीं यावत् तावत् इति. एतत् वयं प्रायशः अभ्यासपुस्तके अपि दृष्टवन्तः इति मन्ये. यावत् तावत् इति अवधेयम् अटेन्शन् तत्र अवधिं युगलम् अवधिम् इत्युक्ते पीरियड् इति. पीरियड् इत्युक्ते पीरियड् आफ् टैम् अथवा पीरियड् आफ् स्पेस् इति तादृश अवधिं युगलम् अवधिं सूचयति. तत्र यावत् तावत् इति तत्र
रेञ्ज् आफ् स्पेस् आर् टैम्
तादृशं. सत्यं भगिनि रेञ्ज् इति तदपि समीचीनं. अस्तु तत्र अन्यत् किमपि वक्तव्यम् अस्ति वा?
अवधिम् इति कर्मपदं
सत्यं सूचयति. सूचयति इति क्रियापदं. तस्य कर्तृपदम् अस्ति यावत् तावत् इति इत्येतत् युगलं तदस्ति कर्तृपदं. तत् सूचयति. किं सूचयति? अवधिं सूचयति.
शङ्कराचार्यस्य बहु प्रसिद्ध श्लोक यावत् किमपि अस्ति, यावत् निवसति देहे इति किमपि अस्ति, अहं न जानामि.
प्रथम श्लोकस्य प्रथमवाक्यं किमस्ति महोदय?
भजगोविन्दं.
तदेव तथैव अहं चिन्तितवान्, भजगोविन्दम् अस्ति खलु इति.
तत्र बहु बहु बहुत्र यावत् तावत् भवति.
अस्तु, समीचीनं महोदय.
महोदय, एकम् अपि एकं प्रश्न, दैर्घ्यम् इत्युक्ते?
दैर्घ्यम्
अत्र विशालत्वं भवति, दीर्घ दीर्घस्य भावदैर्घ्यम् इति.
ओ, तद्धितान्त.
तत्र दैर्घ्यम् इति तत्र
भावः,
तत्र कियत् इति, कियत् इति अर्थे भगिनि, तत्र कियत् इति, तत्र विशालं, तत्र कति विशालम् इति न वक्तुं शक्नुमः खलु, खलु केवलं कियत् इति भवति खलु. तत्र कति अपि कियत्, तयोः मध्ये कः भेदः?
कति इति संख्या, किमपि
किमपि संख्या भवति, एकं वा द्वे वा इति, किन्तु कियत् इति सत्यं 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 भगिनि. अतः तत्र यावत् तावत् कियत् इति प्रश्नस्य तादृश उत्तरस्य वाचकं भवति तत्र खलु. तत्र संख्या इति न, कियत् इति पृच्छामश्चेत् एतावत् इति तादृशरूपं, तावत् यावत् तावत्, यतः दैर्घ्यम् इति विशालं वा कार्य, तत्र धैर्यं वा अथवा यद्यद् आसीत् तत्र जलं, जलमपि जलमपि तत्र जलस्य तुलना तत्र कियत् जलम् इति एव भवति, कति जलम् इति न भवति खलु. अतः तादृश तत्र धैर्घ्यम् इति दीर्घता इति प्रायशः.
क्वाण्टिटि नाट्
क्वालिटि न, क्वालिटि न, क्वाण्टिटि, किन्तु तत्र किं यत् यस्य गणनं न भवति, गणनं न कर्तुं शक्नुमः, तुलना कर्तुं शक्नुमः किन्तु गणनं न कर्तुं शक्नुमः.
यावत् तावत् युगलं तुलनार्थक
भवति, नो चेत् समयं, कालम्. अतः दैर्घ्यं, कालं च, च इति अस्ति खलु, दैर्घ्यम् अथवा कालं, यावत् युद्धं न करोषि तावत् राज्यं न प्राप्नोषि, तत्र समयस्य विषयः खलु.
दैर्घ्यं, कालं, विषये च
न, न, न भगिनि, तत्र आवरणे तत्र दैर्घ्यं, कालं च इति दत्तं खलु, तत्र च इति अस्ति, अतः तत्र दैर्घ्यं, कालं भिन्नं स्तः खलु. दैर्घ्यम् इति रूपं, तत्र नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति, तद् दैर्घ्यं. कियत् इति, कियत् इति प्रश्नस्य तुलनायाः विषयः तत्र.
महोदय, मम प्रश्न भिन्न किञ्चित्. अहमेकं वाक्यं प्रयत्न करोमि महोदय. यावत् तावत् इति युगलं तुलनार्थक भवति, अपि दैर्घ्यं, कालं विषये एव भवति इति. सम्यक्
न, न, न भगिनि, न, मया न अवगतं. तत्र प्रथमतया एतत् चिन्तयामः, तत्र दैर्घ्यं भिन्नम् अपि कालं भिन्नं, तद् अवगच्छति खलु. अस्तु अस्तु, इदानीं वाक्यं वदतु भगिनि.
दैर्घ्यं, कालं च तुलनार्थक भवति युगलं तत्र.
तादृशः नास्ति, तत्र तत्र न कालस्य तुलना एतादृशं भवति. तत्र व्याकरणस्य वर्गः यावत् व्याकरणस्य
यावत् चलति
तावत् तत्र समास अथवा किमपि मीमांसा शास्त्रस्य वर्गः न चलति, तावत् न चलति इति. तत्र समयस्य किन्तु तत् कालं न, तत् कालेन न सूचितं, तदपि धैर्यम् इति भागे एव भवति तत्. यत्र
तत् अहम् अवगच्छामि महोदय. अहम् आङ्ग्लभाषायाम् एक वाक्यं वदामि, तत् अनुवादं करोतु महोदय.
अस्तु, सर्वे अस्तु वदतु भगिनि.
हिन्दीभाषायामपि अहं वदामि.
अस्तु,
यावत् तावत् इस् अ फेर् यूस्ड् फार् स्पेस् एण्ड् टैम् कम्पेरिसन्.
न न न, स्पेस् एण्ड् टैम् तादृशं नास्ति भगिनि तत्र. कम्पेरिसन् इति नास्ति तत्र, कम्पेरिसन् इति किन्तु तत्र धैर्यम् इति तत्र कम्पेरिसन् भवति.
अपि च कालं कम्पेरिसन्
तदपि सत्यं, तदपि कर्तुं शक्नुमः. तत्र केवलं स्पेस् टैम् इति नास्ति. अत्र किं यावत् कार्यं करोति तत्र कुत्र अस्ति, देशः नास्ति, कालः अपि नास्ति.
इन् स्पेस् एण्ड् टैम्
न न न, तत्र कार्यम् अपि धैर्यं, धैर्यं कुत्र अस्ति? कथं कुत्र लभते धैर्यं
महोदय? धैर्घ्यम् अस्ति खलु महोदय, दीर्घं.
हा सत्यं सत्यं सत्यं, हा सत्यं सत्यं, हा धैर्घ्यं तत्र दीर्घता सूचयति. हा किन्तु धैर्यम् इति किन्तु चतुर्थवाक्यं, चतुर्थवाक्यं भगिनि तत्र धैर्यं.
तत्तु सत्यं महोदय, तत्तु पेशन्स्.
तत्र धैर्यं, धैर्यम् इति तत् स्ट्रेन्त् अथवा हा वालर् इति तत्र तद् तत् स्पेस् टैम् इति न वक्तुं शक्नुमः खलु. तद् भिन्नमस्ति तत्र. अतः धैर्घ्यम् इति दीर्घता अथवा तुलना इति अर्थे अस्ति तत्र. तत्र किं भवति, तत् तत्र यावत् तावत् मध्ये आगच्छति तत्र. एषा यावत्, भीमस्य यावत्, भगिनी यावत् इति तत्र सर्वं धैर्घ्यं. यत्र यत्र यावत् इति आरम्भे भवति तत्र कालम् इति विषयः. समीचीनं वा?
क्षम्यतां
महोदय. न न चिन्ता मास्तु, एतत् उपकारी एव भगिनि. चिन्ता मास्तु. रघुवीरानन्दमहोदय प्रश्नः. किं भगिनि?
खास् अण्ड् कासिटिव्.
तत्र अर्थः कः भगिनि?
If this happened, that will happen.
हा तादृश नास्ति खलु भगिनि. हा तादृश यावत् तावत् तत्र as long as this doesn't happen, this will not happen इति अर्थे.
Okay.
If this अथवा if this doesn't वदतु महोदय.
न न तत्र भवान् उक्तवान् अस्ति यथा कालः भवति तत्र यावत् वाक्यस्य प्रथमं
आरम्भे आरम्भे भवति, आरम्भे भवति. तूलना अस्ति चेत् तत्र मध्ये मध्ये भवति. सत्यं महोदय, सः एव भेदः अत्र. अतः तत्र धैर्यम् एकम् अस्ति, कालम् अन्यत् अस्ति, अतः चकारः अस्ति तत्र.
अपि च महोदय यावत् पर्यन्तं तदेव एकं युगलम्.
हा तदपि यावत् हा यावत् पर्यन्तं हा तदपि भवति. सत्यं
यावत् पर्यन्तं
सत्यं
कालस्य एव भवति. यावत् पर्यन्तं भवान् न पठति तावत्
तावत् पर्यन्तं
अवगच्छति.
तत्र किं यावत् अपि अस्ति, तावत् अपि अस्ति, पर्यन्तम् इति द्विवारम् आगच्छति भगिनि. अतः एष एतादृशरूपमेव अस्ति भगिनि गीताञ्जलि भगिनि.
किं महोदय?
यावत् पर्यन्तं तत्रापि वाक्यद्वयं भवति, यावत्पर्यन्तम् एतद् न भवति तावत्पर्यन्तम् एतद् अन्यदपि न भवति इति, सः एव तदेव रूपम्। अतः तत्र कालम् इति एव तत्रापि विषयः, यावत् अपि आरम्भे भवति इति कृत्वा।
From here to here,
like that. न फ्रम् हियर् टु हियर् यावत् पर्यन्तम् इति तत्र एतादृशी अर्थे एव भगिनि, अण्टिल् दिस् इस् डन् दिस् थिङ्ग् विल् नाट् हेपन् इति। अस्तु तर्हि अत्र अग्रे वदतु भगिनि सूर्यकुमारी भगिनि।
As much as, as long as.
हा तादृश तादृश as long as सत्यं भगिनि
सत्यं।
अस्तु अग्रे गच्छामः तर्हि, अत्र नरेश महोदय आरम्भं करोति वा अग्रे, तत्र सम्भाषणम् अस्ति, तत्र मिलिन्दः नारायणः अस्तु जनद्वयम् उपेक्षितमस्ति। अस्तु नरेश महोदय अपि रघुवीरानन्दमहोदय कुर्वन्ति वा अग्रिमपुटे 190।
एतत् सम्भाषणम् उच्चैः पठत चेत् नो चेत् आगामिमासस्य कार्यक्रमस्य विषये चिन्तनम् एव न कृतम्। यदि एवम् एव दिनानि गच्छन्ति तर्हि
मित्र चिन्ता मास्तु, यदि वयं सर्वे कार्याणि विभज्य स्वीकुर्मः तर्हि न कोऽपि क्लेशः भवति।
यदि अस्माकं गोष्ठी भवति तर्हि खलु कार्यविभागः।
अस्तु मित्र, अद्यैव गोष्ठी भवतु, आगच्छामि तावत्। यदि कार्यालयं विलम्बेन गच्छामि तर्हि मम अधिकारी कुप्यति।
सायं मम गृहम् आगच्छति खलु भवान्?
शक्यं चेत् सायङ्काले आगच्छामि, नो चेत् दूरभाषां करोमि।
शक्यं चेत् इति?
आम्, अद्य गणनापरिशोधकः अस्माकं कार्यालयम् आगतः अस्ति, सः प्रायः चतुर्वादने गच्छति, सः गच्छति चेत् अहं भवतः गृहम् आगच्छामि, नो चेत्।
भोः कार्यक्रमस्वरूपविषये अद्य एव निर्णयं कुर्मः।
अस्तु, शक्यं चेत् सायङ्काले मिलामः, नो चेत् श्वः प्रातःकाले मेलिष्यामः।
श्वः अरविन्दस्य समयः न भविष्यति चेत्?
तर्हि अहम् अद्य रात्रौ अरविन्दस्य गृहमेव गच्छामि।
सः गृहे अस्ति चेत् समीचीनं, नो चेत्।
नो चेत्
मिलिन्द महोदय किञ्चित् नाट् आप्टिमिस्टिक्
नेगेटिव् अस्ति मिलिन्द
नेगेटिव्
किञ्चित्
नरेश् महोदय न केवलं मिलिन्द महोदय
सः नेगेटिव् नास्ति महोदय, सः बहु प्राक्टिकल् अस्ति।
सत्यं सत्यं सत्यं,
तदेव नारायण महोदय मित्रमस्ति।
अन्तिमवाक्यं,
नो चेत् पोषति पुनः गमिष्यामि, चिन्ता मास्तु भवतः।
अस्तु अस्तु, बहु समीचीनमस्ति चेत् नो चेत् इति, तत्र सर्वे अवगच्छन्ति इति मन्ये खलु, तत्र तत्र कुत्रापि क्लेशः अस्ति वा अत्र अस्मिन् सम्भाषणे? सर्वं प्रायशः सरलः एव इति मन्ये। तत्र
महोदय उषसि इति अव्ययपदम्, उषसि
ओ उषस् इति प्रायशः सप्तमी विभक्तिरूपं, प्रायशः अव्ययं नास्ति भगिनि, उषस् उषस् इति प्रायशः इति चिन्तयामि भगिनि, सकारान्तपदम् इति उषस् उषस् इति अपि रूपम् अस्ति. उषसि, उषसि इति स्त्रीलिङ्गपदम्. ओ न न उषा न
द्वयोः अपि अस्ति महोदय. उषा स्त्रीलिङ्ग् अपि अरोरा अपि च उषा पुल्लिङ्ग् अस्ति, डान् डे ब्रेक् अस्ति इति.
किन्तु एतत् उषसि इति अस्ति भगिनि, तत्र उषा चिन्तयामि.
उषस् स्त्रीलिङ्ग् पदं महोदय
अस्ति वा?
आम् महोदय, अहं पश्यामि.
उषस् उषस् इति अस्तु. हा तदेव चिन्तयामि भगिनि, उषस् इति प्रायशः सकारान्तपदम्. हा उषस् डान्, हा तदेव अस्ति भगिनि. किन्तु तत्र
न अहम्
किन्तु भगिनि हा तत्र सकारान्तपदं तत्र हा उषसि इति अस्तु. वदतु भगिनि.
सन्ध्याकाले अपि च प्रातःकाले इति सर्वाणि अव्ययपदानि सन्ति चेत् तदेव अहं पृच्छामि महोदय.
पुनरेकवारं
स्त्रीलिङ्गे एव
महोदय. हा स्त्रीलिङ्गे खलु, स्त्रीलिङ्गे
महोदय. उषकालः सूर्यस्य पत्नी उषसि.
सत्यं 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 भगिनि, हा सत्यं. हा
समय अभवत् चिन्तयामि, घण्टा श्रूयते.
सत्यं सत्यं अस्तु, तत्र किं कुर्मः. अस्तु इदानीं अस्तु अस्तु तर्हि तत्र कोऽपि क्लेशः अस्ति वा तत्र पश्यामः, पङ्क्तिशः पश्यामः. तत्र आगामिमासस्य कार्यक्रमस्य विषये चिन्तनम् एव न कृतम्. हा तत्र आगामिमासस्य कार्यक्रमस्य तत्र विशेषणविशेषभावः चिन्तनम् एव न कृतम्. तत्र क्रियापदं किम् अस्ति तत्र?
कृतम् इति लङ् लक् लङ् तु न कृतं,
न कृतम् अस्ति इति. तत्र चिन्तनम्
अस्ति,
चिन्तनम् अपि कृतम् इति. तत्र कर्तृपदं तदेव अस्ति. तत्र चिन्तनं चिन्तनं कीदृशचिन्तनं, कीदृशं चिन्तनं, न कृतं चिन्तनम् इति. हा यदि एवम् एव दिनानि गच्छन्ति तर्हि इति मिलिन्दः भवति वदति. अस्तु मित्र चिन्ता मास्तु, यदि वयं सर्वे कार्याणि विभज्य लबन्तरूपं खलु विभज्य स्वीकुर्मः कार्याणि स्वीकुर्मः तर्हि न कोऽपि क्लेशः भवति. अस्तु सर्वे कार्याणि विभज्य, कार्याणि इति विभज्य इति क्रियापदस्य कर्मपदं भवति. विभज्य स्वीकुर्मः. यदि अस्माकं गोष्ठी भवति तर्हि खलु कार्यविभागः. हा तत्र गोष्ठी, गोष्ठी इत्युक्ते मेलनं,
मेलनं,
हा स्त्रीलिङ्गपदं, स्त्रीलिङ्गपदं गोष्ठी इति. सर्वे सर्वाणि मित्राणि आगच्छन्ति, अतः एकत्र आगच्छन्ति चेत् तत्र गोष्ठी इति भवति. एकत्र एकत्र आगमनं गोष्ठी इति अर्थे. अस्तु अस्तु मित्र, अद्य एव गोष्ठी भवतु, आगच्छामि तावत्. अद्य एव आगच्छामि इति. हा यदि कार्यालयं विलम्बेन गच्छामि तर्हि मम अधिकारी कुप्यति.
आगच्छामि तावत्
तावत् यावत् नास्ति अत्र, बै दट् टैम् आगच्छामि.
आगच्छामि तावत् अद्य अद्य बै दट् टैम् अद्य एव आगच्छामि इति अर्थे. अद्य एव गोष्ठी भवतु, आगच्छामि तावत्. किन्तु प्रातःकाले न भवति, भवितुम् अर्हति यतः कार्यालयं विलम्बेन गच्छामि चेत् तर्हि मम अधिकारी कुप्यति. तत्र अधिकारी इति कीदृशपदम्? अधिकारिनिति अग्रिमे भागे ज्ञास्यामः। अस्तु, सायं मम गृहम् आगच्छति खलु भवान्? शक्यं चेत् सायङ्काले आगच्छामि, नो चेत् दूरभाषां करोमि। इत्युक्ते दूरवाण्या सम्भाषणं करोमि, दूरभाषायन्त्रेण। सत्यं भगिनि, शक्यं चेत् इति, शक्यं चेत् इत्युक्ते किम् इति सः पृच्छति, किमर्थं चेत् इति भवान् वदति। अतः तत्र नारायणः वदति, अहं शक्यं चेत्, अहम् अद्य गणनापरिशोधकः, गणनापरिशोधकः इत्युक्ते अहं चिन्तयामि किम् आडिटर् इति मन्ये खलु, गणनापरिशोधकः अस्माकं कार्यालयम् आगतः अस्ति। आगतः इति गणनापरिशोधकः पदस्य विशेषणं, हा इति आगतः अस्ति। सः प्रायः चतुर्वादने गच्छति, सः गच्छति चेत् अहं भवतः गृहम् आगच्छामि, नो चेत् मिलिन्द भोः कार्यक्रमस्वरूपविषये अद्य एव निर्णयं कुर्मः। निर्णयम् इति कर्मपदं, निर्णयं कुर्मः। अस्तु, शक्यं चेत् सायङ्काले मिलामः, नो चेत् श्वः प्रातःकाले मेलिष्यामः। अस्तु, अस्तु, तत्र प्रश्नः अस्ति वा? अत्र
लट् लकार,
हा सत्यं, मेलिष्यामः, सत्यं भगिनि। हा, श्वः अरविन्दस्य समयः न भविष्यति चेत् तर्हि अहम् अद्य रात्रौ अरविन्दस्य गृहमेव गच्छामि। हा, तत्र रात्रिः रात्रौ सप्तमविभक्तिरूपम्, अरविन्दस्य गृहं गच्छामि, हा एव गच्छामि। सः गृहे अस्ति चेत् समीचीनं, नो चेत् उषसि पुनः गमिष्यामि। चिन्ता मास्तु, भवतः चिन्ता मास्तु, अथवा भवान् चिन्ता मा करोतु इति। अस्तु, समीचीनं, तत्र चेत् नो चेत् अपि, यदि तर्हि यावत् तावत्, यद्यपि तथापि, अव्ययानि, सर्वाणि अव्ययानि दृष्टानि अद्य अस्माभिः। अतः
वाक्ये, महोदय, अन्तिमवाक्ये चिन्ता मास्तु भवतः, अपि च चिन्ता मास्तु भवान्, द्वयोः समीचीनमेव।
तत्र भवतः चिन्ता, तत्र यदि भवान् इति वदामः, तत्र विशेष, तत्र सम्बोधनम् इव भवति भगिनि। सत्यं सत्यं, भवान् चिन्ता मास्तु भवान्, सत्यं। हा, किन्तु यदि अत्र पूर्णम् एकमेव वाक्यम् अस्ति इति कृत्वा, तत्र मास्तु, चिन्ता मास्तु, कस्य चिन्ता मास्तु, भवतः चिन्ता मास्तु इति, हा तावदेव समानार्थक वाक्यं भगिनि। अत्र एतादृशरूपं
स्वीकृत्य, इत्युक्ते षष्टि,
सत्यं, भवतः चिन्ता मास्तु इति। अस्तु, तर्हि अस्तु, बहु किमपि अद्य कृतवन्तः, अग्रिमवर्गे तत्र अन्तिमकथा या अस्ति तां पठामः। अस्तु, तर्हि सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः, धन्यवादः, नमस्कारः,
धन्यवादः,
नमस्कारः, हरि ओं, धन्यवादः, नमस्कारः।